नमस्सर्वेभ्यः अद्य कोविदवर्गस्य चत्वारिंशः पाठः सेप्टेम्बर् मासस्य एकविंशे आसीत् तद्दिने मया न शक्तमित्यतः अद्य कुर्मः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मिनमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ रघुवंशस्य द्वितीयसर्गे चिताः श्लोकाः अस्माभिः अधीयमानाः सन्ति. प्रायेण सर्गस्य अन्तिमं भागं प्रविष्टाः वयम्. दिलीपः नन्दिनीं सिंहात् मोचयितुम् आत्मानं सिंहाय समर्पयति. सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः. एवं सति तव भोजनं, तव नाम सिंहस्य कुम्भोदरस्य भोजनमपि न नश्यति, वसिष्ठस्य होमधेनुरपि न नश्यति, अतः कृपया मां स्वीकृत्य धेनुं त्यजतु इति दिलीपः प्रार्थयते सिंहं. तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्ठम्भ विमुक्तबाहुः सन्न्यस्तशस्त्रो हरये स्वदेहम् उपानयत् पिण्डमिमामिषस्य. अस्तु इति वचनम् उक्त्वा सिंहः अङ्गीकरोति. झटिति दिलीपस्य हस्तः प्रतिष्ठम्भात् विमुक्तः. सः स्वस्य आयुधं पार्श्वे स्थापयित्वा सिंहाय आत्मनः देहं समर्पयति. Are you able to hear me well? Is there a problem with the voice or audio?
No, it seems okay.
तस्मिन् क्षणे पालयितुः प्रजानाम् उत्पश्यतः सिंहनिपातमुग्रम् अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता. तस्मिन् क्षणे यदा दिलीपः आत्मानं समर्पयितुम् अधोमुखः सिंहस्य पुरतः उपविशति तदा सिंहः आक्रमणं कुर्यात् इति सः निरीक्षते, किन्तु अवाङ्मुखस्य तस्य उपरि, अधः पश्यतः तस्य उपरि विद्याधरहस्तमुक्ता पुष्पवृष्टिः पपात. Instead of the lion's attack, there was a shower of flowers on Dilipa. Etavat paryantam drishtavartantah. Agre adya pathamaha. Agrimaha shlokaha. Uttishthavatse tyamratayamanam. Vacho nishamyo thitamutthitasan. Dadarsharaja janani mimasvam. Gamagratah prasravinim nasimham. नलिनी भगिनी, यू हैव टू अनम्यूट योरसेल्फ. प्रिया भगिनी,
नमस्ते.
न क्षम्यता. उत्तिष्ठवत्सेत्यमृतायमानम्.
उत्तिष्ठवत्सेत्यमृतायमानम्. उत्तिष्ठवत्सेत्यमृतायमानम्.
वचो निशम्योत्थितमुत्थितः सन्.
वचो निशम्योत्थितमुत्थितः सन्. वचो निशम्योत्थितमुत्थितः सन्.
ददर्श राजा जननीमिव स्वाम्.
ददर्श राजा जननीमिव स्वाम्. ददर्श राजा जननीमिव स्वाम्
गामग्रतः प्रस्रविणीम् नसिंहम्
गामग्रतः प्रस्रविणीम् नसिंहम् गामग्रतः प्रस्रविणीम् नसिंहम्
पूर्णं श्लोकं पठतु
उत्तिष्ठवत्सेत्यमृताय मानम् वचो निशंयोत्थितमुत्थितः सन् ददर्श राजा जननीमिव स्वाम् गामग्रतः प्रस्रविणीम् नसिंहम् उत्तिष्ठ वत्स इति अमृतायमानम् वचः निशम्य उत्थितम् उत्थितः सन् ददर्श राजा जननीम् इव त्वाम् गाम् अग्रतः प्रस्रविणीम् न सिंहम्
सम्यक् उत्तिष्ठ वत्स इति अमृतायमानम् वचः निशम्य उत्थितम् उत्थितः सन् ददर्श राजा जननीम् इव स्वाम् गाम् अग्रतः प्रस्रविणीम् न सिंहम् सन्धिः
वत्सेति गुणसन्धिः वत्स इति वत्सेति अमृतायमानम् यण् सन्धिः वचः विसर्गस्य उत्त्वम् निशम्योत्थित गुणसन्धिः निशम्य उत्थित स्वाम् अनुस्वारसन्धिः and first line also vatseti amrutayamanam vacho there also anuspara
samyak so vatsa iti nishamya utthitam ubhayatrapi guna sandhihi iti amrutayamanam iti amrutayamanam yan sandhihi amrutamayamanam vachah prasravinim na also atrapi swam gam sarvatrapi anuswara sandhihi वचो निशम्य वचः निशम्य विसर्गस्य उत्त्वम् एवं परच्छेदः उत्तिष्ठवत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्रविणीं न सिंहम् कः अर्थः पुष्पवृष्टिः अभूत् झटिः वाक्यम् अपि श्रुतम् किमिति हे वत्स उत्तिष्ठ एतादृशं वचनं श्रुत्वा आश्चर्यान्वितः राजा उत्थितवान् उत्थाय अग्रे स्थितां नन्दिनीम् एव अपश्यत् न तु सिंहम् सो दिलीप हर्ड् द वर्ड्स् ओ सन् गेट् अप् सो गेटिङ्ग् अप् ही सॉ टु हिज़् अमेज़्मेण्ट् दट् देर् वाज़् ओन्ली द कौ इन् फ्रण्ट् आफ् हिम् अण्ड् ही कुड् नाट् सी द लयन् कुम्भोदर एनिवेर् अत्र किं क्रियापदम्
ददर्श क्रियापदम्
इतोप्येकम् आदौ एव अस्ति उत्तिष्ठ
उत्तिष्ठ
उत्तिष्ठ इत्यपि तिङन्तं क्रियापदं प्रथमाविभक्तिः
प्रथमाविभक्तिः राजा
राजा इति प्रथमाविभक्तिः अनन्तरं उत्थितः सन् उत्थितः सन् राजा इति प्रथमा विभक्तिः सम्बोधनप्रथमा
वत्स
वत्स इति सम्बोधनप्रथमा द्वितीया
द्वितीया amrutayamanam vachaha utthitam jananim swam gam rasravinim
Simham. Dvitiya bahulah shlokaha. So many words all in Dvitiya Bhakti. Agre. Anya kape vibhakti hi nasti iti chintayam. Avyayani.
Avyayani iti nishamya again iva agratah na
so iti nishamya iva agratah na iti avyayani anvayah
dadarsha kaha dadarsha raja dadarsha kam dadarsha gam dadarsha kidrishim gam prasravinim gam kimiva kamiva prasravinim gam jananimiva prasravinim gam kasya jananimiva swam jananimiva kutaha dadarsha agrataha dadarsha katham kim krutva dadarsha nishamya dadarsha kim nishamya dadarsha vachaha nishamya dadarsha kidrisham vachaha amrutayamanam vachaha kim vachaha uttishta vatsa iti vachaha katham dadarsha uttitasan dadarsha katham bhutaha dadarsha uttitasan dadarsha
samyak So dadarsha apashyat kaha dadarsha raja nripatihi nilipaha apashyat kidrishaha san dadarsha utthitaha san urdhvamukaha san so he was bending probably kneeling down in front of the lion so he got up he rose and he saw kim krutva utthitaha nishamya shrutva so we can either relate nishamya to dadarsha or nishamya to utthitaha he heard he got up and then he saw sahakramah adau shrutavan anantaram utthitaha san dadarsha nishamya shrutva kim nishamya kim shrutva sah dadarsha utthitaha उत्थितं वचः उत्पन्नं वचनम् अत्र उत्थितं इत्यस्य उत्पन्नम् इत्यर्थः दट् विच् वाज् हर्ड् अर्थात् स्वयं जातः हि डिड् नाट् नो हू स्पोक् जस्ट् हि हर्ड् द वर्ड्स् विच् रोज् सेयिङ्ग् उत्तिष्ठ वत्स इति उत्थितं वचः निशम्य उत्थितस्सन् राजा ददर्श कीदृशं वचः अमृतायमानम् अमृतम् इव आचरति So that which is like nectar, sudha samanam. Yada saha kim chintitavan itaparam maranam iti yada chintayati tada tu uttishtha वत्स इति वचनम् अमृतम् इव आचरति तस्य. सो लिटरली इट् वास् लैक् नेक्टर् दट् इस् विच् दट् विच् अवाय्डेड् वाट् हि थाट् वास् अ सर्टन् डेत्. किम् इति वचः उत्तिष्ठ वत्स इति. सो हे वत्स उत्तिष्ठ इति वचनम्. सो दोस् वर्ड्स्. सो इट् इस् अ डिरेक्ट् रिपोर्टिङ्ग् आफ् द वर्ड्स्. काम् ददर्श गाम् धेनुं नन्दिनीं ददर्श. कीदृशीं गां प्रस्रविणीं स्नेहेन प्रवृत्त क्षीरधाराम्. प्रस्रव इस् टु ऊज्. मिल्क् वाज़् ऊजिङ्ग् औट्. सामान्यतः यदा मातुः वत्सस्य विषये स्नेहः भवति, सो वेन् द मदर् फील्स् अफेक्षन् टुवर्ड्स् द चैल्ड्, मिल्क् आटोमेटिकलि कम्स् औट्. देर् इस् नो इफोर्ट्. इट् इस् इन्वालण्टरि. सो प्रस्रविणी. सो दिलीपस्य भक्तिं दृष्ट्वा नन्दिन्याः तस्य विषये महान् स्नेहः उत्पन्नः, अतः तस्याः क्षीरं स्रवति इति कालिदासः कथयति. प्रस्रविणीं गां ददर्श प्रवृत्त क्षीरधारा. सो द मिल्क् वास् फ्लोयिङ्ग् औट् आफ् अफेक्षन्. तादृशीं गां ददर्श. काम् इव ददर्श स्वां जननीम् इव स्वमातरम् इव. मातुः एव पुत्रस्य विषये तावत् वात्सल्यं भवति. तादृशीमेव धेनुं दिलीपः दृष्टवान्. कुत्र ददर्श अग्रतः पुरतः. इन् फ्रण्ट् आफ् हिम्. अगेन् न सिंहं. तत्र सिंहं न ददर्श इति अन्वयः. न ददर्श न अपश्यत्. कं न ददर्श सिंहं. केसरिणं न ददर्श. सो हि डिड् नाट् सी द लयन्. हि जस्ट् सॉ द कौ विच् वास् ऊजिङ्ग् मिल्क् औट् आफ् अफेक्षन् फार् हिम्. अन्वयः कः? राजा वत्स उत्तिष्ठ इति उत्थितम् अमृतायमानं वचः निशम्य उत्थितः सन् अग्रतः स्वां जननीम् इव प्रस्रविणीं गां ददर्श सिंहं न ददर्श. कः अर्थः? सो वत्स उत्तिष्ठ इत्येवम् उत्पन्नं सुधासमानं वचनं श्रुत्वा. सो हियरिङ्ग् द नेक्टर् लैक् वर्ड्स् सेयिङ्ग् सन् गेट् अप्. सो ऊर्ध्वमुखः दिलीपः. सो दिलीप लुक्ड् अप् और् हि स्टुड् अप्. अग्रे स्वमातरम् इव स्नेहेन प्रवृत्त क्षीरधारां धेनुं नन्दिनीम् अपश्यत्. सो इन् फ्रण्ट् आफ् हिम् हि सा द कौ नन्दिनी हू वास् यूसिङ्ग् मिल्क् औट् आफ् अफेक्षन् फार् हिम् लैक् हिस् ओन् मदर्. न तु केसरिणं कुम्भोदरम्. एण्ड् हि कुड् नाट् सी द लयन् कुम्भोदर. उत्तिष्ठवत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्रविणीं न सिंहम्. व्याकरणांशाः जयश्री भगिनी.
नमस्ते भगिनि. स्था धातुः उत्पूर्वकं मध्यमपुरुष एकवचनम्.
सम्यक्. उत् उपसर्गः स्था धातोः लोट्लकारे मध्यमपुरुषे एकवचनार्थम्. गतिनिवृत्तौ इति धातुः.
अकारान्तपुल्लिङ्गशब्दः सम्बोधनप्रथमा एकवचनम्.
सम्यक्. अमृतायमानम्.
अमृतायमानम् अकारान्त नपुंसकलिङ्गं वा
इत्यस्य विशेषणम्. अतः नपुंसकलिङ्गम्.
द्वितीया एकवचनम्
अकारान्त नपुंसकलिङ्गशब्दस्य. कीदृशः शब्दः एषः?
शानच् भगिनि.
शानच्. सम्यक्. सो अमृताय शानच्. अमृताय इति किम्? अमृतम् इव आचरति इत्यर्थे अमृतायते. नामधातुः शानच् शत्र शानच् प्रत्ययौ कृदन्तौ धातोरेव भवतः. कथं धातुः इति चेत् नामधातुः. सो नामधातुः इत्युक्ते नामपदेभ्यः वयं धातोः निर्माणं कुर्मः. अग्रिमे व्याकरणवर्गे यदा णिजन्तानां सन्नन्तानां विषये पश्यामः तदा ज्ञास्यते. कदाचित् नामपदात् धातूनां निर्माणं भवति. तत्र क्यङ् इति कश्चित् प्रत्ययः, अमृत इति नामपदम्, अमृतम् अमृतम् इव आचरति, दट् विच् आक्ट्स् लैक् नेक्टर् इत्यर्थे अमृताय इति नामधातुः. तस्मात् नामधातोः शानच् प्रत्यये अमृतायमान इति अकारान्तः शब्दः भवति. वचः
वचः सकारान्त नपुङ्क नपुंसकलिङ्गशब्दः. द्वितीया एकवचनम्.
सम्यक्. भाषितं वचनं वचः इति अमरकोशे अस्ति. व्याहार उक्तिर्लपितं भाषितं वचनं वचः. निशम्य
नि अधिक्षं धातुः ल्यबन्त अव्ययम्.
ल्यबन्तम् अव्ययम्. सम्यक्. उत्थितम्
अकारान्त नपुंसकलिङ्गशब्दः.
वचः विशेषणम्, अतः अत्रापि नपुंसकलिङ्गः द्वितीया एकवचनम्. कः प्रत्ययः?
शत्रुप्रत्ययः.
उत्थितः.
उत्थितम् निष्ठा.
निष्ठा क्तप्रत्ययः. उत्थित उत उपसर्गः स्थाधातोः क्तप्रत्ययः. कृदन्तशब्दः. उत्थितः.
अगेन् सेम्
किन्तु अत्र पुल्लिङ्गः सेम् विशेषः. पूर्वत्र वचः इत्यस्य विशेषणम् अतः नपुंसकलिङ्गशब्दः. अत्र राजा इत्यस्य विशेषणम् अतः पुल्लिङ्गशब्दः. समानं स्थाधातोः क्तप्रत्ययान्तः. सन्
सन् अस्धातुः. बिट् कन्फ्यूस्ड् हियर्.
सन् इति पठन् इव.
पठन् इव. शत्रुप्रत्ययः तत्र.
सत्यम्. सो तकारान्तः पुल्लिङ्गः प्रथमा एकवचनम्. अस् धातोः शत्रुप्रत्ययः. सो सन् इत्यस्य बीयिङ्ग् इत्यर्थः. सो उत्थितः सन् इस् हेविङ्ग् गोट् अप् इत्यर्थः. सो सन् इति इट् इस् जस्ट् यूस् टु इट्स् जस्ट् अ विशेषणं. तत्र विशेषः कोऽपि नास्ति. उत्थितः सन्. सो हेविङ्ग् गोट् अप् इत्यर्थः. अस् धातोः शत्रुप्रत्ययान्तः शब्दः. धन्यवादाः. महादेवन् महोदय.
नमस्ते. ददर्श लिट्लकारः दृश् धातोः प्रथमपुरुषे एकवचनं.
दृश् धातोः लिट्लकारे प्रथमपुरुषे एकवचनं. दृशिर्प्रेक्षणे इति धातुः.
राजा इति नकारान्तपुल्लिङ्गः प्रथमाविभक्तेकवचनम्.
सत्यम्.
राजा राजानौ राजानौ.
उत्तमं. जननी
जननीम् इति ईकारान्तस्त्रीलिङ्गः द्वितीयाविभक्तेकवचनं.
सम्यक्. जनयित्री प्रसूर्माता जननी इति अमरकोशे. जननी जनयित्री प्रसूः माता इति पर्यायपदानि. इव स्वाम्
स्वाम् आकारान्तस्त्रीलिङ्गम् आकारान्तस्त्रीलिङ्गः द्वितीया विभक्त्यकरणम्.
सम्यक्. सो स्व शब्दः. सो स्वः स्वा स्वं लिङ्गत्रये अपि भवति. अत्र जननीम् इत्यस्य विशेषणम्, अतः स्त्रीलिङ्गे द्वितीया एकवचनम्.
गाम् इति ओकारान्तपुल्लिङ्गः द्वितीया विभक्त्यकवचनम्.
जननीमेव. सत्यं. किं लिङ्गम्?
स्त्रीलिङ्गं
वा अत्र स्त्रीलिङ्गम् इट्स् वेरि काण्टेक्स्ट् प्रस्रविणीं स्वां जननीं गां स्त्रीलिङ्गमेव अत्र परं तु लिङ्गद्वये भवति ओकारान्तस्त्रीलिङ्गः द्वितीयाविभक्तौ एकवचनं माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी बहवः पर्यायाः सन्ति गोः तत्र कानिचन अग्रतः समासः नास्ति तद्धित अग्रशब्दात् तसि इति तद्धितप्रत्ययः गतवर्गे वयं दृष्टवन्तः तः इति पञ्चम्यर्थे तसिल् भवति सामान्यतः नगरतः ग्रामतः इत्यादि किन्तु अत्र सप्तम्यर्थे तसि प्रत्ययः विशेषः हेतोः अग्रे दृष्टवान् इत्यर्थः अत्र पञ्चम्यर्थः नास्ति सप्तम्यर्थः अग्रे अग्रतः इति प्रस्रविणीम् प्रस्रविणी इत्यत्र प्रस्रवणं शीलमस्याः प्र उपसर्गः स्त्रूधातोः नीनि प्रत्ययः कृदन्तशब्दः प्रस्रविणी इति सिंहम् सम्यक् कः अलङ्कारः जननीमिव स्वाम् कः उपमेयः प्रस्रवणं वात्सल्यसूचकं प्रस्रवणम् अतः पूर्णोपमा अलङ्कारः उपजातिः तत्र प्रथमपादे अन्तिमपादे इन्द्रवज्र अन्यत्र उपेन्द्रवज्र उत्तिष्ठवत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् ददर्श राजा जननीमेव स्वां गामग्रतः प्रस्रविणीं न सिंहम् एकः अपि समासः नास्ति विशेषः सामान्यतः लघु श्लोकेषु अपि समासाः भवन्ति अस्मिन् श्लोके तु कुत्रापि समासः नास्ति अग्रिमः श्लोकः तं विस्मितं धेनुरुवाच साधो मायां मयोद्भाव्य परीक्षितोऽसि ऋषिप्रभावान्मयिनान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः
नमस्ते
तं विस्मितं धेनुरुवाच साधो
तं विस्मितं धेनुरुवाच साधो
मायां मयोद्भाव्य परीक्षितोऽसि
मायां मयोद्भाव्य परीक्षितोऽसि ऋषिप्रभावान् मयिनान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः
पूर्णं श्लोकं पठतु
तं विश्वमितं धेनुरुवाच साधो मायां मयोद्भाव्य परीक्षितोऽसि ऋषिप्रभावान् मयिनान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः तम विस्मितम देनुहु उवाच साधो मायाम मया उद्भाव्य परीक्षितः असि ऋषि प्रभावान
प्रभावात
सॉरी ऋषि प्रभावात ऋषि प्रभावात मयि न अंतकः अपि प्रभुः प्रहर्तुं किमुतान्य हिंस्रा किमुत अन्य हिंस्राः
सम्यक् तं विस्मितं धेनुः उवाच साधो मायां मया उद्भाव्य परीक्षितः असि ऋषिप्रभावात् मयि न अन्तकः अपि प्रभुः प्रहर्तुं किमुत अन्यहिंस्राः सन्धिः
धेनुः उवाच धेनुरुवाच विसर्गस्य उत्वम्
विसर्गस्य
उत्वम् ओ धेनुः उवाच ऋत्वम्
रेफः
रेफः धेनुः मायां मया उद्भाव्य मयोद्भाव्य गुणसन्धिः परीक्षितः असि परीक्षितोऽसि विसर्गस्य उत्वम् and pururupa afterwards, is that correct?
Correct.
Okay. And then rishi prabhavat anunasika na antakah nantaka savarna dirghasandhihi antakah api antakopi there's also visargasya utvam प्रभुः प्रहर्तुं किमुत अन्यहिंस्राः किमुत अन्यहिंस्राः सवर्णदीर्घसन्धिः
सम्यक् सो अनुस्वारः तं विस्मितं विस्मितं धेनुः मायां प्रहर्तुं सर्वत्र अनुस्वारसन्धिः धेनुः उवाच धेनुरुवाच विसर्गस्य रेफः मया उद्भाव्य गुणसन्धिः परीक्षितोऽसि अन्तकोऽपि उभयत्र विसर्गस्य उत्त्वं गुणः पूर्वरूपम् ऋषिप्रभावान् मयि इत्यत्र अनुनासिकसन्धिः न अन्तकः किमुत अन्यहिंस्राः उभयत्र सवर्णदीर्घसन्धिः तं विस्मितं धेनुरुवाच साधो मायां मयोद्भाव्य परीक्षितोऽसि ऋषिप्रभावान् मयिनान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः कः अर्थः धेनुः तं दिलीपं वदति सः अत्यन्तं विस्मितः आश्चर्यान्वितः तदा तं राजानं नन्दिनी उक्तवती किमिति तव परीक्षार्थमेव मया मायासिंहः निर्मितः सो द लयन् वाज़् नाट् रियल् ऐ टेस्टेड् यू बै यूसिङ्ग् मै पवर्स् आफ् माया ऋषिप्रभावात् वसिष्ठस्य अनुग्रहेण अन्तकः अपि मयि प्रहर्तुं प्रभुः न सो ईवन् यमा केनाट् टच् मी सो फर्गेट् नार्मल् दीस् यु नो नार्मल् एनिमल्स् लैक् अ लयन् आर् समथिङ्ग् सो ईवन् यमा केनाट् टच् मी इट् वास् मै माया दट् वास् मेनिफेस्ट् एस् द लयन् इति नन्दिनी दिलीपं कथयति क्रियापदं किम्
उवाच असि
उवाच असि इति पदद्वयम् अस्ति इति द्वितीयपादे अध्याहारः कर्तव्यः
प्रथम
अर्थे
प्रथम धेनुः अन्तकः प्रभुः अन्यहिंस्राः
परीक्षितः
ओ परीक्षितः परीक्षितः द्वितीया विभक्ति तं विस्मितं मायां तृतीया मया पञ्चमी ऋषिप्रभावात् इस् पञ्चमी and saptami na sashti, saptami is mayi. Sambodhana pradama is sadho. Avyayam udbhavya api prahurtum kimutha.
Samyak. Anvayaha.
Ka uvacha, uvacha, so ka uvacha, venuku uvacha. Kam uvacha, tam dilibam uvacha. Kidrisham tam, vismitam tam uvacha. Kaya.
Kimiti uvacha, that is, there is a break there.
Okay.
So we have to ask a question, what did she say? So then asi, parikshitaha asi.
Okay. Parikshitaha asi. Kim kritva udbhavya kam udbhavya mayam udbhavya kaya maya kah na bhavati
Na bhavati. So instead of that, you have to take it as Prabhuhu na bhavati. That together is the kriya. Is not able, is not capable of. So
okay.
Prabhuhu na bhavati, na samarthaha iti kriyapadam. That whole thing is the kriya.
Okay. Kaha Prabhuhu na bhavati, anta kaha Prabhuhu na bhavati. Then kim kartum na bhavati prahartum kasmin prahartum mayi prahartum kasmat rishi prabhavat
samyak
and ke I mean na dadarsha anya hinsraha na dadarsha
na samarthaha. So the kimuta is na prabhuhu, which is na samarthaha. Ke na samarthaha anya himsraha.
Okay, okay, thank you.
So that the avyaya kimuta is gives definitely not nishchayena na samarthaha ityartha. It is just showing the contrast. Ata anvayakarana velayam tatraiva. Kimuta ityukte sarvatha na samarthaha na prabhavaha ke anya himsraha. Samyak. So padapada pratipadartham pashyamaha. Uvacha avadat ka uvacha dhenuhu nandini avadat kam uvacha tam dilipam uvacha kidrisham vismitam ashcharyanvitam dilipam uvacha. Kim iti uvacha, what did she say? Sadho, he sajjana, so it is a sambodhana. So she is admiring his adherence to dharma. Ataha sadho, he sajjana, parikshitaha asi, vimrushtaha asi, you have been tested. Kaya parikshitaha, maya nandinya parikshitaha. Kim krutva parikshitaha, udbhavya, so kalpayitva, having created, kam udbhavya or having resorted to, kam udbhavya mayam, so maya shaktim udbhavya, so having used, resorted to my maya, you have been tested by me. Okay, that is one sentence. The second sentence she says is, Prabhuho na asti athava na bhavati, na samarthaha, not capable of, ityeva kriya. Okay, so, kaha na prabhuho, antakaha api, antakaha yamaha, mrityudevata, saha api na samarthaha, kim kartum na prabhuho, prahartum, akramanam kartum, to attack. Kutra mayi prahartum. So samanyataha atra praharaha ityatra mayi saptami vibhakti upayujyate. Mama vishaye. So mam prahartum ityapi sadhu mayi prahartum ityapi sadhu. Okay, so to attack me directly when we are using it as karma, we can use it as mam prahartum. Mayi praharaha kriyate ityapi prayogaha asti. So, mayi akramanam kartum na prabhuhu. Kasmat rishi prabhavat maharshehe vasishthasya tapobalat yamaha api mayi akramanam kartum na shaknoti. Kimuta nishchayena na samartha. So kimuta is a question actually, what then ityarthaha, which means definitely not possible. So nishchayena na samarthaha ke anya himsraha, himsraha himsanti, those which trouble, that is wild animals like simhadayaha praninaha nishchayena mam akrantum na samarthaha. Sarvam mama mayabalena eva aham simham prakalpya tava parikshanam kritavati iti nandini rajanam vadati. Sahanmayaha vismitam tam dhenuhu uvacha. He sadho maya mayam udbhavya parikshitaha asi. Rishi prabhavat antakaha api mayi prahartum na prabhuhu. Anya himsraha kimuta. So simhasya adarshanena vismayanvitam dilipam nandini uptavati. So seeing the king who was amazed by not seeing the lion, I mean, where did the lion go suddenly? So seeing the king who was amazed, Nandini said, he sajjana maya maya shaktim kalpayitva bhavan vimrishtaha. So you have been tested by me by using my maya. Vasishthasya tapobalat yamaha api mayi akramanam kartum na samarthaha. So because of the power of Vasishtha, even yama cannot attack me. Evam sati simhadayaha praninaha kathamva mayi akramanam kartum shaknuyuhu. How then can these normal, ordinary animals like a lion attack me? Iti Nandini kathayati. Atra prashnaha kim uta ityatra kim uta iti chedaha na bhavati vaiti. Tatra kim uta is a avyaya samudaya. So kim individually has a different meaning. Uta is also there as an independent avyaya. But when they come together, so that samudaya, the kimuta gives that effect of definitely not. Kadachit tatha bhavati yatha utaho ityasti. Uta iti ekam avyayam, aho iti utaho iti. Ataha avyaya samudayanam prayogaha bhavati. Since they go together in meaning, we take them together and say, okay, this combination of avyayas gives this meaning. Tam vismitan dhenuruvacha sadho mayam mayodhavya parikshitosi rishi prabhavan mayinantakopi prabhu prahartum kimutanya himsraha. Vyakaranam shan pashyamaha. Tam vismitam.
Namaste. Akharanta pullingaha vidhiya vibhakto yekavchana.
अकारान्तः पुल्लिङ्गः द्वितीया एकवचनम् कः प्रत्ययः
इकप्रत्ययः वि उपसर्गम् स्मि धातोः
वि स्मि कृत कृदन्तशब्दः धेनुः उवाच सर्वं बहुवारं दृष्टं साधो
उकारान्त पुल्लिङ्गः सम्बोधनप्रथमा एकवचनम्
सम्यक् मायाम्
आकारान्त स्त्रीलिङ्ग द्वितीया विभक्तौ एकवचनम्
सम्यक् मया
तकारान्त त्रिशुलिङ्गेषु समानः तृतीया विभक्ति एकवचनम्
सम्यक् उद्भाव्य
भावि
इत्यत्र भू निच् भवति भावयति. सो उत् उपसर्गः भूधातुः णिच् निजन्तात् ल्यप् सो उद्भाव्य इति भवति. उद्भवति इस् टु अरैस्, उद्भावयति इस् टु कॉज इट् टु अरैस्. मायाम् उद्भाव्य परीक्षितः
कारान्तः पुल्लिङ्गः प्रथमा विभक्तो एकवचनं.
कः प्रत्ययः?
इत् प्रत्यय.
परि उपसर्गः ईक्ष धातुः क्तप्रत्ययः परीक्षितः असि
अस् धातोः लट् लकार मध्यमपुरुष एकवचनं परस्मै.
सम्यक्, धन्यवादः. नलिनी भगिनी.
नमस्ते भगिनि. असि हस्तात्
अभवत् अग्रे ऋषिप्रभावात्.
ऋषिप्रभावात् ऋषेः प्रभावः षष्ठी तत्पुरुषसमासम् अकारान्त पुल्लिङ्गः पञ्चमी विभक्ति एकवचनम्.
सम्यक्, ऋषेः प्रभावः ऋषिप्रभावः
तस्मात्
षष्ठी तत्पुरुषः.
मयि दकारान्त त्रिशिलिङ्गेषु समानरूपः अस्मत् शब्दः सप्तमी विभक्तिः एकवचनम्.
सम्यक्.
न अव्ययम् अन्तकः अकारान्त पुल्लिङ्गः अन्तकशब्दः प्रथमा विभक्ति एकवचनं.
सम्यक्.
अन्तं करोति इति अन्तकः, इस् इट् रैट्?
हा, तत्र अन्तकः इत्येव शब्दः, तत्र करोति इति कृ धातुः तु नास्ति. अन्तकः इति
हलो हलो न श्रूयते, श्रूयते वा? भगिनी श्रूयते वा?
I think we have lost Soumya. One second. Soumya?
हरिः ओम्
हरिः ओम्
श्रूयते वा
श्रूयते वा
हा मया श्रूयते
नौ सौम्या वि लास्ट् यू फोर् क्वैट् अ वैल्
I could hear everybody. It's not like I lost audio. Can you hear me clearly now?
Very clear now.
Okay. Okay. Shall I continue?
Yes.
Api avyayam.
Just a moment. So we were in antakaha.
Yeah, antakaha.
So antakaha. So yamaha. Yama is called antaka because he is the end of all. कालो दण्डधरः श्राद्धदेवः वैवस्वतोऽन्तकः इति पर्यायपदानि सन्ति अमरकोशे अग्रे अन्तकः अपि अपि इति अव्ययं प्रभुः
उकारान्तपुल्लिङ्गः प्रभुशब्दः प्रथमाविभक्तिः एकवचनं प्रकर्तुम् अव्ययं प्र उपसर्गः हृ धातुः तुमुन् प्रत्ययः
सम्यक्
किमुत अव्ययं अन्य अव्ययं हिंस्रा
अन्यहंस्राः इति एकमेव पदम्
हिंस्रा अकारान्त नपुंसकलिङ्गः
पुल्लिङ्गः
पुल्लिङ्गः प्रथमाविभक्तिः एकवचनं
बहुवचनं
बहुवचनं बहुवचनं
समासः
समासः ओ हिंसां कुर्वन्ति इति हिंस्राः
हा हिंस्राः अन्या हिंस्राः इत्यत्र समासः
न जानामि
अन्ये हिंस्राः अन्यहिंस्राः अतः अत्र कर्मधारयसमासः सो हिंस्र शब्दः हिंसां कुर्वन्ति इति हिंस्राः सो सः कृदन्तशब्दः सो अन्ये हिंस्राः अन्यहिंस्राः इत्यत्र कर्मधारयसमासः अत्र एकः विशेषः तत्र प्रभुः इत्यत्र सामान्यतः स्वामी इत्यर्थे प्रभुशब्दः भवति किन्तु अत्र समर्थः इत्यर्थे सो प्रभु हेज़् सेवरल् मीनिङ्ग्स् हियर् इट् मीन्स् केपबल् प्रभुशब्देन योगे तुमुन्नन्तः विशेषेण विहितः सो प्रहर्तुं प्रभुः सो केपबल् आफ् डूयिङ्ग् सम्थिङ्ग् इत्यर्थे प्रभुः समर्थः इत्यादि शब्दैः सह तुमुन्नन्तस्य प्रयोगः भवति अत्र किमुत इति द्वन्द्वसमासः वा इति प्रश्नः तत्र समासः नास्ति इट् इस् जस्ट् दट् द टू अव्ययस् वेन् दे आर् यूस्ड् टुगेदर् एस् किमुत दे गिव् दट् पर्टिक्युलर् मीनिङ्ग् समासः इति विशिष्य नास्ति अन्तकः इत्यत्र नुल् प्रत्ययः वा इति अन्यः प्रश्नः नुल् प्रत्ययः धातोः भवति किन्तु अन्त इति धातुः तु नास्ति इति चिन्तयामि देर् इस् नो पर्टिक्युलर् धातु देर् इस् वन् अति बट् नाट् श्योर् इफ् अन्तक इस् डिरैव् फ्रम् देर् सो विल् चेक् इट् औट् इफ् अन्तक इस् पासिबल् टु डिरैव् इट् फ्रम् नूल् धातुः द्रष्टव्यः सो अत्र उपजातिः वृत्तं तृतीयपादे ऋ इत्यत्र उपेन्द्रवज्र एवं चतुर्थे अपि अन्यत्र इन्द्रवज्र अस्ति तं विस्मितं धेनुरुवाच साधो मायां मयोद्भाव्यपरीक्षितोऽसि ऋषिप्रभावान् मयिनान्तकोपे प्रभुः प्रहर्तुं किमुतान्यहिंस्राः सो चन्द्रशेखरन् महोदयस्य वाचस्पत्यं गिव्स् अन्तक अन्तं करोति निच् नुल् So you have to take anta as the name of pada and then tatkaroti tadachaste iti nich. So the nich becomes, then it becomes a dhatu and then add a nul and make it pratyayika. Dhanyavada. So anta iti name of pada at nich pratyayakrate सः धातुः भवति तस्मात् धातोः नूलि पुनः अन्तकः सम्यक् अर्थः तदा युज्यते बिकास् देर् इस् नो डिरेक्ट् धातु यु हव् टु ब्रिङ्ग् इट् फ्रम् द नामपद काल्ड् अन्त अन्ये केऽपि प्रश्नाः सन्ति वा अद्य श्लोकद्वयं दृष्टं पुष्पवृष्टिं पृष्ठवृष्टिः भवति ततः उत्तिष्ठवत्स इति वचनं श्रुत्वा दिलीपः उत्थाय पश्यति तत्र केवलं धेनुः अस्ति सिंहः नास्ति नन्दिनी तं वदति मया मायाबलेन तव परीक्षणं कृतम् इति कथयति अग्रे श्लोकद्वयं भक्त्या गुरौ मयि अनुकम्पया च प्रीतास्मिते पुत्रवरं वृणीष्व न केवलानां पयसां प्रसूतिम् अवेहि मां कामदुघां प्रसन्नां सन्तानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा दुग्धापयः पत्रपुटे मदीयं पुत्रोपपुङ्क्ष्वेति तमादिदेश श्लोकद्वयम् अग्रिमवर्गे पश्यामः अग्रिमः वर्गः So there is a, I didn't change this. So asmin shukravasare vargah bhavishyati. Which is I think 27. Right. So saptavimshe dinanke shukravasare vargah bhavishyati. वागर्थाविवसंपृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ गुरुरेव गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो अत्र समासविषये कश्चित् प्रश्नः पुण्डरीकाक्षः इत्यत्र कः विग्रहः पुण्डरीके इव अक्षिणी यस्य सः पुण्डरीकाक्षः पुण्डरीकं नाम कमलम् इत्यर्थः सो पुण्डरीके इव अक्षिणी यस्य सः अकारान्तत्वं कथं तत्र समासान्तः प्रत्ययः अस्ति षच् इति प्रत्ययः भवति सर्वत्रापि जलजाक्षः नीरजाक्षः सः षच् प्रत्ययः भवति इत्यतः स्त्रीलिङ्गे ईकारान्तत्वं भवति षच् इति षित् प्रत्ययः अतः स्त्रीलिङ्गे जलजाक्षी पुण्डरीकाक्षी इत्यादि ईकारान्तशब्दः भवति सामासान्तः अस्ति इत्यतः अक्षि इति ईकारान्तः शब्दः षच् इति प्रत्यये कृते अक्ष इति अकारान्तः भवति स्त्रीलिङ्गे अक्षी मीनाक्षी इत्यादि ईकारान्त भाव्य इत्यत्र भूधातोः यत् प्रत्ययः वा इति इफ् यु डु भूधातोः यत् यु गेट् भव्य सो निजन्त भूधातोः यत् प्रत्यये भाव्य इति भवति किन्तु उद्भाव्य इत्यत्र तत् ल्यबन्तम् अव्ययम् सो निजन्तस्य भूधातोः ल्यप् प्रत्यये कृते उद्भाव्य इति भवति केवलं भाव्यशब्दः अस्ति भाव् इति निजन्तधातोः यत् प्रत्यये कृते भवति किन्तु भाव्यः भाव्या भाव्यं तत्तु अव्ययं न उद्भाव्य इत्यत्र अव्ययम् सो प्रस्रविणीं कुड् यु प्लीस् रिपीट् प्रस्रविणीं प्रस्रवितुं शीलं यस्याः सो प्रस्रवति इस् टु ऊस् तत्र टु प्रोड्यूस् इत्यर्थः णिनि इति प्रत्ययः कृदन्तः प्रस्र उपसर्गपूर्वकात् सृ धातोः णिनि प्रत्ययः प्रस्रविणी इत्यत्र प्रस्रवति अथवा प्रायः प्रस्रवयति निच् स्यात् वा द्रष्टव्यं बट् इट् इस् अ कृदन्तशब्दः एनी अदर् क्वश्चन् अस्तु तर्हि शुक्रवासरे पश्यामः